Okay, we learn the next verse from Mukundamala by Kulashekar Alvar. Nasta,
Nasta, Nasta, Nasta,
Dharme,
Dharme, Dharme, Dharme,
Navasu Nichaye,
Navasu Nichaye, Navasu Nichaye, Navasu Nichaye,
Naiva Kamopaboge,
Naiva Kamopaboge, Naiva Kamopaboge, Naiva Kamopaboge.
It is Yad Tad Bhavyam.
Yes,
second line it is Yat Tad Bhavyam.
Yat Tad Bhavyam.
Bhavatu.
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 Bhagavan.
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 Purva.
Purva. Purva. Purva.
Karmanu Rupam.
Karmanu Rupam. Karmanu Rupam.
Karmanu Rupam.
Second line Yat Tad Bhavyam.
Yat Tad Bhavyam.
Yat Tad Bhavyam. Yat Tad Bhavyam. Is it clear to everyone? It is Yat Tad Bhavyam. Okay. Yat Tad Prarthyan.
Yat Prarthyan. Yat Tad Prarthyan. Yat Prarthyan.
Mama Bahumatam.
Mama Bahumatam. Mama Bahumatam. Mama Bahumatam.
Janma Janmantarepi.
Janma Janmantarepi. Janma Janmantarepi. Janma Janmantarepi.
Tvatpadam.
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 Boruha.
Boruha. Boruha. Boruha.
Yugagata.
Yugagata. Yugagata. Yugagata.
Nishchala.
Nishchala. Nishchala. Nishchala.
Bhakti Rastu.
Bhakti Rastu. Bhakti Rastu. Bhakti Rastu.
Karmanu Rupam. Purva Karmanu Rupam.
Purva Karmanu Rupam.
Purva Karmanu
Rupam.
Naiva Kamopaboge.
Naiva Kamopaboge.
Naiva
Kamopaboge.
Any other doubt? Yes?
Last line,
second
verse.
Last line?
Second verse.
Bhakti Rastu. Oh, no, second verse. Padam Bho Ruha.
Padam Bho Ruha. Padam Bho Ruha. Padam Bho Ruha.
Any other doubt?
What line last?
Janma Janmantarepi.
Janma Janmantarepi. Janma Janmantarepi. Janma
Janmantarepi. Clear? Everyone? Okay. Nasta Dharme. Nasta Dharme Navasu Nichaye Naiva Kamopaboge.
Nasta Dharme Navasu Nichaye Naiva Kamopaboge. Nasta Dharme Navasu Nichaye Naiva Kamopaboge. Nasta Dharme Navasu Nichaye Naiva Kamopaboge.
Yat Tad Bhavyam Bhavatu Bhagavan Purva Karmanu Rupam.
Yat Tad Bhavyam Bhavatu Bhagavan Purva Karmanu Rupam. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karmanu Rupam. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karmanu Rupam. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karmanu Rupam.
Nastadharme Navasu Nichaye Naiva Kamopaboge.
Nastadharme Navasu.
Wait, I'll break it up still further. Nastadharme Navasu Nichaye.
Nastadharme Navasu Nichaye. Nastadharme Navasu Nichaye. Nastadharme Navasu Nichaye.
Naiva Kamopaboge.
Naiva Kamopaboge. Naiva Kamopaboge.
Yat Tad Bhavyam.
Yat Tad Bhavyam.
Yat Tad Bhavyam.
Yat Tad Bhavyam.
Bhavatu Bhagavan.
Bhavatu Bhagavan.
Bhavatu Bhagavan. Bhavatu Bhagavan.
Yat Tad Bhavyam. Bhavatu Bhagavan. I'll tell the whole line now. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karma Rupam.
Yat Tad Bhavyam Bhavatu Bhagavan Purva Karma Rupam. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karma Rupam. Yat Tad Bhavyam Bhavatu Bhagavan Purva Karma Rupam.
नास्ताधर्मे नवसु निचये नैव कामोपभोगे
नास्ताधर्मे नवसु निचये नैव कामोपभोगे नास्ताधर्मे नवसु निचये नैव कामोपभोगे
यत्तद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम्
यत्तद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् यत्तद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम्
यत्तद्भव्यं भवतु भगवन्
पूर्वकर्मानुरूपम्
एतत् प्रार्थ्यं मम बहुमतम् जन्मत्यं मम बहुमतं जन्म जन्मान्तरेपि
जन्म जन्मान्तरेपि जन्म जन्मान्तरेपि
एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि
एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्वन् मिनिटल् ब्रेक् इत निश्चला भक्तिरस्तु त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ओके आई विल रीसाइट द होल पैराग्राफ नाउ नास्ताधर्मे नवसु निचये नैव कामोपभोगे यत्तद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि त्वत्पदाम्भोरुहयुगगता निश्चला भक्तिरस्तु
नास्ताधर्मे नवसु निचये नैव कामोपभोगे यत्तद्भव्यं भवतु भगवान् पूर्वकर्मानुरूपम् एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु
नास्ताधर्मे I'll recite once more. नास्ताधर्मे नवसु निचये नैव कामोपभोगे यत्तद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् एतत्प्रार्थ्यं मम बहुमतं जन्म जन्मान्तरेपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु
नास्ताधर्मे नवसु निचये नैव कामोपभोगे
Let these come as they inevitably must.
In accordance with my past deeds.
But I do pray for this most cherished boon. Birth after birth,
let me render
unflinching
devotional service
unto your
two lotus feet.
See what a beautiful prayer.
Shavadevi.
Shavadevi.